ప్రజాపతిగుం హవామహే కవిం కవీనాముపమశ్రవస్తమం జ్యేష్ఠరాజం బ్రహ్మణాం బ్రహ్మణస్పత ఆన శృణ్వన్నోదిభిః సేదసాదనం ప్రణో దేవీ సరస్వతీ వాజేభిర్వాజినీవతీ ీనామిత్రయవతు గణేశాయ నమః సరస్వత్యై నమః శ్రీగురుభ్యో నమః హరిః ఓం ఓం నమో భగవతే రుద్రాయ ఓం నమస్తే రుద్రమంజవ ఉతోత ఇషవే నమః నమస్తే అస్తు ధన్వనే బాహుభ్యాముతతే నమః యాత ఇషు శివతమా శివం బభూవతే ధనుః శివాశరవ్యాయాత వతయానో రుద్రమృడయా యాతే రుద్ర శివా తనూర ఘోరా పాపకాశినీ తయానస్తను వాషంతమయా గిరిషంతాభిచాకషే యామిషం గిరిషంతహస్తే బిభర్షస్తవే శివాం గిరిత్రతాం కురువాహిగుం శ్రీ పురుషం జగత శివే నవచసా త్వా గిరిషాచ్ఛావదామసి యథా నస్సర్వమిజ్జగదయక్ష్మగుం సుమనా అసత అధ్యవోచదధివక్త ప్రథమో దైవ్యోభిషక అహేకశ్చ సర్వా జంభయన్ సర్వాశ్చ యాతు ధాన్యః అసౌ యస్తామ్రో అరుణ ఉత బభ్రుస్సు మంగళః యే చేవాగుం రుద్రా అవితో దిక్షు శ్రుతా సహస్రశో వైషాగుం హేడైమహే అసౌ యో వసర్పతినీలగ్రీవో విలోహితః ఉతైరం గోపా అదృశన్నదృశన్నుదహార్యః ఉతైరం విశ్వా భూతాని సదృష్టో మృడయాతినః నమో అస్తు నీలగ్రీవాయ సహస్రాక్షాయ మీఢుషే అథోయే అస్య సత్వానోహంతేభ్యోకరన్నమః ప్రముంచధన్వరస్త్వముభయోరార్తియోర్జా యాశ్చ దేహస్త ఇషవః ప్రదాతా భగవో వప అవదత్యధనుస్త్వగుం సహస్రాక్షశతే సుధే నిశీర్య శల్యానాం ముఖా శివోర సువనా భవ విజ్జం ధనుః కపర్దినో విశల్యో బాణవాగుం ఉత అనేషన్నస్యేషవ ఆభురస్య నిషంగతిః యాతే హేతిర్మీరుష్టవహస్తే బభూవతే ధనుః తయాస్మాన్ విశ్వతస్త్వమయక్ష్మయా పరిభుజా నమస్తే అస్త్వాయుధాయానాతతాయ ధృష్టవే ఉభాభ్యాముతతే నమో బాహుభ్యాం తవ ధన్వనే పరితే ధన్వనో హేతిరస్మాన్ ఋణక్తు విశ్వదః అథోయ ఇషుధిస్తవారే అస్మన్నితేహితం నమస్తే అస్తు భగవన్ విశ్వేశ్వరాయ మహాదేవాయ త్రయంబకాయ త్రిపురాంతకాయ త్రికాగ్నికాలాయ కాలాగ్నిరుద్రాయ నీలకంఠాయ మృత్యుం జయాయ సర్వేశ్వరాయ సదాశివాయ శ్రీమన్మహాదేవాయ నమః నమో హిరణ్యమాహవే నాన్యే దిశాం చ పతయే నమో నమో వృక్షేభ్యో हरिकेशेभ्यः पशूनाम् पतये नमो नमः सस्पिञ्जराय द्विषेमते पथीनाम् पतये नमो नमो बभ्लुषाय विव्याधिनेन्द्रानाम् पतये नमो नमो हरिकेशायोपवेदिने पुष्टानाम् पतये नमो नमो भवस्य हेत्यै जगदाम् पतये नमो नमो रुद्राय तथा विने क्षेत्राणाम् पतये नमो नमः सूताय हन्त्याय पतये नमो नमो रोहिताय स्थपतये वृक्षाणाम् पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणाम् पतये नमो नमो भुवन्तये वारिवत्कृतायौषधीनाम् पतये नमो नम उच्चैर्घोषायाक्रन्दयते पत्तीनाम् पतये नमो नम कृत्स्नभीताय धावते सत्त्वनाम् पतये नमः नमः सहमानाय निव्याधिन आव्याधिनीनाम् पतये नमो नम ककुभाय निषङ्गिणे स्तेनाम् पतये नमो नमो निषङ्गिण इषुधिमते तस्कराणाम् पतये नमो नमो वञ्चते परिवञ्चते सायूनाम् पतये नमो नमो निचेरवे परिचरायारण्यानाम् पतये नमो नमः श्रिकाविभ्यो जिगागुम् सद्भ्योमुष्णताम् पतये नमो नमो श्रीमद्भ्यो नक्तम् चरद्भ्यः प्रकृन्तानाम् पतये नमो नम उष्णीशिने गिरिचराय कुलुञ्जानाम् पतये नमो नम इषुमद्भ्यो धन्वाविभ्यश्च मो नमो नम आदन्वानेभ्यः प्रतिदधानेभ्यश्च मो नमो नम आयच्छद्भ्यो वृषुजद्भ्यश्च मो नमो नमास्यभ्यो विद्यभ्यश्च मो नमो नम आसीनेभ्यश्च यानेभ्यश्च मो नमो नम स्वपद्भ्यो जाग्रभ्यश्च मो नमो नमः शिष्टभ्यो धावद्भ्यश्च मो नमो नमः सभाभ्यः सभापतिभ्यश्च मो नमो नमो अश्वेभ्यो अश्वपतिभ्यश्च मो नमः नम आव्याधिनीभ्यो विविध्यन्तेभ्यश्च मो नमो नम उगणाभ्यस्त्रगुंहतेभ्यश्च मो नमो नमो घृत्सेभ्यो घृत्सभरिभ्यश्च मो नमो नमो व्रातेभ्यो व्रातपतिभ्यश्च मो नमो नमो गणेभ्यो गणपतिभ्यश्च मो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च मो नमो नमो महद्भ्यः चुल्लकेभ्यश्च मो नमो नमो रथिभ्यो रथेभ्यश्च मो नमो नमो रथेभ्यो रथपतिभ्यश्च मो नमो नमः सेनाभ्यः सेनारिभ्यश्च मो नमो नमः शत्रुभ्यः सङ्ग्रहीतृभ्यश्च मो नमो नमः तक्षभ्यो रथकारेभ्यश्च मो नमो नमः कुलालेभ्यः कर्मारेभ्यश्च मो नमो नमः पुञ्जिष्टेभ्यो निषादेभ्यश्च मो नमो नम इषुकृद्भ्यो धन्वकृद्भ्यश्च मो नमो नमो मृगयुभ्यश्वनिभ्यश्च मो नमो नमः श्वभ्यश्वपदिभ्यश्च मो नमः नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च सिधिकण्ठाय च नमः कपर्दिने च व्युप्तकेराय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिभिभिष्टाय च नमो भीदुष्टमाय चेशुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षेयसे च नमो वृद्धाय च संवृद्धने च नमो अग्रयाय च प्रथमाय च नमः आशवे चाजिराय च नमः शीघ्रयाय च शेभ्याय च नमः ऊर्म्याय चावस्वन्याय च नमः श्रोतस्याय च द्वेप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च परजाय च नमो मध्यमाय च प्रगल्भाय च नमो जघन्याय च बुद्धिज्ञाय च नमः सोभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः उर्वर्याय च खल्याय च नमः श्लोक्याय चावसान्याय च नमो वन्याय च कक्षाय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेणाय चाशुरथाय च नमः शूराय चावभिन्दने च नमो वर्मिणे च वरूदिने च नमो भिल्मिणे च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय च हनन्याय च नमो धृष्णवे च प्रभृशाय च नमो दूताय च प्रहिताय च नमो निषङ्गिने चेजुधिमते च नमः तीक्ष्णे च मे चायुधिने च नमः स्वायुधाय च सुधन्वने च नमः शुत्याय च पथ्याय च नमः काट्याय च नीप्याय च नमः सूर्याय च धनस्याय च नमो नाद्याय च वैषन्ताय च नमः कोप्याय च वट्याय च नमो वर्षाय च वर्षाय च नमो मेघ्याय च विद्युत्याय च नमः ईर्द्रियाय च तप्याय च नमो वात्याय च रेष्ययाय च नमो वास्तव्याय च वास्तुपाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमस्ताम्राय च अरुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो हन्त्रे च हरीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमः तीर्थाय च कुल्याय च नमः पार्याय च भार्याय च नमः प्रतरणाय चोत्तरणाय च नमः आतार्याय च लाद्याय च नमः शष्प्याय च फेन्याय च नमः सिकत्याय च प्रभास्याय च नव इहिण्याय च प्रपथ्याय च नमः किगुंशिलाय च क्षयणाय च नमः कपर्दिने च पुलस्तके च नमो गोष्ठ्याय च गृह्याय च नमः सल्प्याय च गेह्याय च नमः काट्याय च गह्वरेष्ठाय च नमो हृदय्याय च निवेश्याय च नमः पागुंसव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय च लप्याय च नमः ऊर्म्याय च सूर्म्याय च नमः पर्ण्याय च पर्णशद्याय च नमो पगुरवाणाय च भिघ्नते च नमः आखिदते च प्रखिदते च नमो वक्रिकेभ्यो देवानागुं हृदयेभ्यो नमो विक्षीणकेभ्यो नमो विचिन्वत्केभ्यो नव आनिर्हतेभ्यो नव आमिवत्केभ्यः द्रावे अन्धदस्पदे दरिद्रन्नीललोहिता एषाम् पुरुषाणामेषाम् पशूनाम् माभिर्वारोमो एषाम् किञ्चनामवत जाते रुद्रशिवा तनु शिवा विश्वाः भेषजे शिवा रुद्रस्य भेषजे तजानो मृडजीवसे इमागुम् रुद्राय तवसे कपर्दिने क्षयद्वीराय प्रभरामहे मतिम् यथा दशवसद्विपदे चतुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन्ननातुरम् मृडानो रुद्रो तनो वयस्कृति क्षयद्वीराय नमसा विधेमते यच्छम् च योश्च मनुरायजे पिता तदश्यामतमरुद्र प्रणीतो मानो महान्तमुतमानो अर्भकम् मान उक्षन्तमुतमान उक्षितम् मानो वदे पितरम् मातमातरम् प्रियामानस्तनुवो रुद्ररीरिषः मानस्तोकेतन एवान आयुषि मानो गोषु मानो अश्वेषु रीरिषः वीरान्मानो रुद्रभामितो वदे अविश्वन्तो नमसा विधेमते आरात्ते गोघ्न उत पुरुषज्ञे क्षयद्वीराय सुम्नभस्मेते अस्तु रक्षाचनो अधि च देव ब्रूह्यधाचन शर्वयच्च द्विवर्हाः स्तुहि श्रुतम् गर्त च दैयुवाणम् मृगन्न भीममुपहत्नुमुग्रम् मृडाचरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निवपन्तु सेनाः परिणो रुद्रस्य हेतिर्विणक्तु परित्वेषस्य दुर्मतिरकायोः अवस्थिरा भगवद्भ्यस्तनुष्वमेवस्तोकायतनयाय मृडया मेढुष्टम शिव नम शिवो न सुवरा भव परमे वृक्ष आयुधन्निधाय कृत्रिम्बसान आचर पिनाकम् बिभ्रदागहे विकिरिड विलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुम् हेतयोन्यस्वन्निवपन्तु ताः सहस्राणि सहस्रधा बाहुवोस्तव हेतयः तासामीशानो भगवः पराचीनामुखाकृति सहस्राणि सहस्रशो ये रुद्र अधिभोम्या तेषाकुम् सहस्रयो जने वधन्वाणि तन्वसि अस्मिन्महत्यर्णवेन्तरिक्षे भव अधि नीलग्रीवाशिनिकण्ठा शर्वा अधः क्षमाचराः नीलग्रीवाशिनिकण्ठादिवगुम् रुद्र उपश्रिताः ये वृक्षेषु सस्पिञ्जरा नीलग्रीवा विलोहिताः ये भूतानामधिपतयो विशिखासत्कपर्दिनः ये अन्येषु विविध्यन्ति पात्रेषु पिबतो जनान ये पथाम् पथि रक्षय ऐलभृतायव्युधः ये तीर्थानि प्रचरन्ति शिकावन्तानि सङ्गिनः य एतावन्तश्च भूयागुंसश्च दिशो रुद्रावितस्थिरे तेषाकुम् सहस्रयो जने वदन्वानि तन्मसे नमो रुद्रेभ्यो ये पृथिव्याम् येऽन्तरिक्षे ये दिविये चावन्नम् वातो वर्षमिषभस्तेभ्यो दश प्राचीर्दश दक्षिणादश प्रतिचीर्दशोदिचीर्दशोर्ध्वास्तेभ्यो नमस्ते नो मृडयन्तु तेजम् द्विष्मो यश्च नो द्वे स्थितम् भोजम् भेदधामि त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनान् नृत्योर्मुक्षे यमामृताश्च यो रुद्रो अग्नव्यो अप्सु य ओषधेषु यो रुद्रो विश्वा भुवना विवेश तस्मै रुद्राय नमो अस्तु ये ते सहस्रमयुदम् पाशा मृत्योर्वर्त्याय हन्तवे प्राण्यज्ञस्य भार्यया सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानां ग्रन्थिरसि रुद्रोपाविशान्तकः तेनान्येनाप्यायस्वा नमो रुद्राय विष्णवे मृत्युर्मे पाहि तमुष्टु हि यस्विषुः सुदन्वायो विश्वस्य क्षयति भेषजस्य यक्ष्वा महेशौ मनसाय रुद्रम् नमो ओभिर्देव वसुरम् नुमस्य अयम् मे हस्तो भगवानयम् मे भगवत्तरः अयम् मे विश्वभे एष जोजगुम् शिवाभिमर्षणः ॐ शान्ति शान्ति शान्तिः ॐ शं च मे वयश्च मे प्रियं च मे नु कामश्च मे कामश्च मे सौ मनसश्च मे भद्रं च मे श्रेयश्च मे वस्यश्च मे यशश्च मे भगश्च मे द्रविणं च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वं च मे महश्च मे संविच्च मे ज्ञात्रं च मे तुश्च मे प्रसोश्च मे शीरं च मे लयश्च मृतं च मे मृतं च मे यक्ष्मं च मे नामयच्च मे जीवातुश्च मे दीर्घायुत्वं च मे न मित्रं च मे भयं च मे सुखं च मे शयनं च मे सुषा च मे सुदिनं च मे ॐ शान्ति शान्ति शान्तिः ॐ भद्रं कर्णेभिः शृणुयावदेवाः भद्रं पश्येमाक्षभिर्यजत्राः स्थिरैरङ्गैः सुष्ठुवागुंसस्तनोभिः व्यशेम देवहितं यदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्ताक्षो अरिष्टनेमिः स्वस्ति नो बृहस्पते ददातु ॐ शान्ति शान्ति शान्तिः ॐ नमस्ते गणपतये त्वमेव प्रत्यक्षं तत्त्वमसि त्वमेव केवलं कर्तासि त्वमेव केवलं धर्तासि त्वमेव केवलं हर्तासि त्वमेव सर्वं खल्विदं ब्रह्मासि त्वं साक्षादात्मासि नित्यं ऋतं वच्मि सत्यं वच्मि अवत्वं माम् अववक्तारम् अवश्रोतारम् अवदातारम् अवधातारम् अवानुजानमवशिष्यम् अवपश्चात्तात् अवपुरस्तात् अवोत्तरातात् अवदक्षिणातात् अवचोर्ध्वातात् अवाधरातात् सर्वतो मां पाहि पाहि समन्तात् त्वं वाङ्मयस्त्वं चिन्मयः त्वमानन्दमयस्त्वं ब्रह्ममयः त्वं सच्चिदानन्दाद्वितीयोऽसि त्वं प्रत्यक्षं ब्रह्मासि त्वं ज्ञानमयो विज्ञानमयोऽसि सर्वं जगदिदं त्वत्तो जायते सर्वं जगदिदं त्वत्र तिष्ठति सर्वं जगदिदं त्वैलयमेष्यति सर्वं जगदिदं त्वयि प्रत्येति त्वं भूमिरापो नलो निलो नमः त्वं चत्वारि वा आपदानि त्वं गुणत्रयातीतः त्वं अवस्थात्रयातीतः त्वं देहत्रयातीतः त्वं कालत्रयातीतः त्वं मूलाधारस्थितो नित्यम् त्वं शक्तित्रयात्मकः त्वां योगिनो ध्यायन्ति नित्यम् त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं ब्रह्मभूर्भुवस्सुभरो गणादीम् पूर्वमुच्चार्य वर्णादीम् तदनन्तरम् अनुस्वारः परतरः अर्देम् दुलसितम् तारेण रुद्धम् एतत्तवमनुस्वरूपम् गकारः पूर्वरूपम् अकारो मध्यमरूपम् अनुस्वारश्चान्त्यरूपम् बिन्दुरुत्तररूपम् नादः सन्धानम् सगुंहिता सन्धिः तैषा गणेश विद्या गणक ऋषिः निसृद्गायत्री छन्दः गणपतिर्देवता ॐ गङ्गणपतये नमः एकदन्ताय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्तिः प्रचोदयात् एकदन्तम् चतुर्हस्तम् पाशमङ्कुशधारिणम् रदम् च वरदम् हस्तैर्बिभ्राणम् मूषकध्वजम् रक्तम् लम्बोदरम् शूर्पकर्णकम् रक्तवाससम् रक्तगन्धानुलिप्ताङ्गम् रक्तपुष्पै सुपूजितम् भक्तानुकम्पिनम् देवम् जगत्कारणमच्युतम् आविर्भूतम् च शिष्यादौ प्रकृतेः पुरुषात्परम् एवम् ध्यायति यो नित्यम् स योगी योगिनाम् वरः नमो व्रातपतये नमो गणपतये नमः प्रमथपतये नमस्ते अस्तु लम्बोदरायैकदन्ताय विघ्ननाशिने शिवसुताय वरदमूर्तये नमः
एतदथर्वशीर्षम् योधीते स ब्रह्म भूयाय कल्पते स सर्वविघ्नैर्न बाध्यते स सर्वत्र सुखमेधते स पञ्चमहापापात् प्रमुच्यते सायमधियारो दिवसकृतम् पापम् नाशयति रातरधियारो रात्रिकृतम् पापम् नाशयति सायम् प्रातः प्रयुञ्जानो पापो पापो भवति सर्वत्राधीयानोपविघ्नो भवति धर्मार्थकाममोक्षम् च विन्दति इदमथर्वशीर्षमशिष्याय न देयम् यो यदि मोहाद्दास्यति स पापेयाद्भवति सहस्रावर्तनाद्यम् यम् काममधीते तम् तमनेन साधयेत् अनेन गणपतिमभिषिञ्चति स वाग्मी भवति चतुर्थ्यामनश्वम् जपति स विद्यावान् भवति इत्यथर्वणवाक्यम् ब्रह्माद्यावरणम् विद्यानभिभेति कदाचनेति यो दूर्वाङ्कुरैर्यजति स वैश्रवणोपमो भवति यो लाजैर्यजति स यशोवान् भवति समेधावान् भवति यो मोदकसहस्रेण यजति स वाञ्छितफलमवाप्नोति यः साज्यसमिर्भिर्यजति स सर्वम् लभते स सर्वम् लभते अष्टौ ब्राह्मणाग्रम्यग्राहयित्वा सूर्यवर्चस्वी भवति सूर्यग्रहे महानद्याम् प्रतिमा सन्निधौ वा जप्त्वा सिद्धमन्त्रो भवति महाविघ्नात् प्रमुच्यते महादोषात् प्रमुच्यते महाप्रत्यवायात् प्रमुच्यते स सर्वविद्भवति सर्वविद्भवति य एवं वेदा इत्युपनिषत् भद्रं कर्णेभिः शृणुयामदेवाः भद्रं पश्येमाक्षभिर्यजत्राः स्थिरैरङ्गैः सुष्ठुवागुंसस्तनोभिः व्यशेम देवहितं यदायुः स्वस्तिर इन्द्रो वृद्धश्रवाः स्वस्तिर पूषा विश्ववेदाः स्वस्तिरस्तार्षो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॐ शान्ति शान्ति शान्तिः ॐ
योऽसौ तपन्नुतेति स सर्वेषाम् भूतानाम् प्राणानादायोदेति मावे प्रजाया मा पशूनाम् मा मम प्राणानादायो दगाः असव्योस्तमेते स सर्वेषाम् भूतानाम् प्राणानादायास्तमेते मामे प्रजाया मा पशूनाम् मा मम प्राणानादायास्तङ्गाः असौ य आपूर्यते स सर्वेषाम् भूतानाम् प्राणैरापूर्यते मामे प्रजाया मा पशूनाम् मा मम प्राणैरापूरिष्ठाः असौ योपक्षीयते स सर्वेषाम् भूतानाम् प्राणैरपक्षीयते मामे प्रजाया मा पशूनाम् मा मम प्राणैरपक्षेष्ठाः अमूनि नक्षत्राणि सर्वेषाम् भूतानाम् प्राणैरपप्रसर्पन्ति चोत्सर्पन्ति च मामे प्रजाया मा पशूनाम् मा मम प्राणैरपप्रसृपतमोत्सृपत इमे मासाश्चार्धमासाश्च सर्वेषाम् भूतानाम् प्राणैरपप्रसर्पन्ति चोत्सर्पन्ति च मामे प्रजाया मा पशूनाम् मा मम प्राणैरपप्रसृपतमोत्सृपत इमऋतवः सर्वेषाम् भूतानाम् प्राणैरपप्रसर्पन्ति चोत्सर्पन्ति च मामे प्रजाया मा पशूनाम् मा मम प्राणैरपप्रसृपतमोत्सृपत अयगुम् संवत्सरः सर्वेषाम् भूतानाम् प्राणैरपप्रसर्पति चोत्सर्पति च मामे प्रजाया मा पशूनाम् मा मम प्राणैरपप्रसृपमोत्सृप इदमहः सर्वेषाम् भूतानाम् प्राणैरपप्रसर्पति चोत्सर्पति च मामे प्रजाया मा पशूनाम् मा मम प्राणैरपप्रसृपमोत्सृप इयगुम् रात्रिः सर्वेषाम् भूतानाम् प्राणैरपप्रसर्पति चोत्सर्पति च मामे प्रजाया मा पशूनाम् मा मम प्राणैरपप्रसृपमोत्सृप ॐ भूर्भुवः स्वः एतद्वो मिथुनम् मानो मिथुनगुम् रीढ्वम् अदादित्यस्याष्टपुरुषस्य वसूनामादित्यानागस्थाने स्वतेजसा भारी रुद्राणामादित्यानागस्थाने स्वतेजसा भानि आदित्यानामादित्यानागस्थाने स्वतेजसा भानि सदा गुंसत्यानाम् आदित्यानागस्थाने स्वतेजसा भानि अभिधून्वतामभिज्ञताम् वातवताम् मरुताम् आदित्यानागस्थाने स्वतेजसा भानि ऋभूणामादित्यानागस्थाने स्वतेजसा भानि विश्वेशाम् देवानाम् आदित्यानागस्थाने स्वतेजसा भानि संवत्सरस्य सवितुः आदित्यस्य स्थाने स्वतेजसा भानि ॐ भूर्भुवस्सुवः रश्मयो वो मिथुनम् मानो मिथुनगुम् रेध्वम् आरोगस्य स्थाने स्वतेजसा भानि भ्राजस्य स्थाने स्वतेजसा भानि पठरस्य स्थाने स्वतेजसा भानि पतङ्गस्य स्थाने स्वतेजसा भानि स्वर्णरस्य स्थाने स्वतेजसा भानि ज्योतिषीमतस्य स्थाने स्वतेजसा भानि विभासस्य स्थाने स्वतेजसा भानि कश्यपस्य स्थाने स्वतेजसा भानि ॐ भूर्भुवस्वः आपो वो मिथुनम् मानो मिथुनगुम् रेध्वम् अथ वायोरेकादश पुरुषस्यैकादश स्त्रीकस्य प्रभ्राजमानानागुम् रुद्राणागस्थाने स्वतेजसा भानि व्यवदातानागुम् रुद्राणागस्थाने स्वतेजसा भानि वासुकि वैद्युतानागुम् रुद्राणागस्थाने स्वतेजसा भानि रजतानागुम् रुद्राणागस्थाने स्वतेजसा भानि परुषाणागुम् रुद्राणागस्थाने स्वतेजसा भानि श्यामानागुम् रुद्राणागस्थाने स्वतेजसा भानि कपिलानागुम् रुद्राणागस्थाने स्वतेजसा भानि अतिलोहितानागुम् रुद्राणागस्थाने स्वतेजसा भानि ऊर्ध्वानागुम् रुद्राणागस्थाने स्वतेजसा भानि अवपतन्तानागुम् रुद्राणागस्थाने स्वतेजसा भानि वैद्युतानागुम् रुद्राणागस्थाने स्वतेजसा भानि प्रभ्राजमानीनागुम् रुद्राणीनागस्थाने स्वतेजसा भानि व्यवधातीनागुम् रुद्राणीनागस्थाने स्वतेजसा भानि वासुकि वैद्युतीनागुम् रुद्राणीनागस्थाने स्वतेजसा भानि रजतानागुम् रुद्राणीनागस्थाने स्वतेजसा भानि परुषाणागुम् रुद्राणीनागस्थाने स्वतेजसा भानि श्यामानागुम् रुद्राणीनागस्थाने स्वतेजसा भानि कपिलानागुम् रुद्राणीनागस्थाने स्वतेजसा भानि अतिलोहितीनागुम् रुद्राणीनागस्थाने स्वतेजसा भानि ऊर्ध्वानागुम् रुद्राणीनागस्थाने स्वतेजसा भानि
अवपतन्ति नागुम् रुद्राणि नागस्थाने स्वतेजसा भानि वैद्युजी नागुम् रुद्राणि नागस्थाने स्वतेजसा भानि ॐ भूर्भुवस्वः रूपाणि वो मिथुनम् मानो मिथुनगुम् रेध्वम् भद्रम् कर्णेभिः शृणुयामदेवाः भद्रम् पश्येमाक्षभिः यजत्राः स्थिरैरङ्गैस्तुष्टुवागुंसस्तनूभिः व्यशेम देवहितम् यदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्तार्च्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॐ शान्ति शान्ति शान्तिः ॐ विष्णोर्नुकम् वीर्याणि प्रवोचय्य पार्थिवानि विममे रजातुम् श्रियो अस्कभायदुत्तरगुम् सदत्तम् विचक्रमाण स्त्रेधोरुगायः विष्णो रराटमसि विष्णो पृष्ठमसि विष्णो श्नप्त्रे स्नो विष्णो शूरसि विष्णो ध्रुवमसि वैष्णवमसि विष्णवे त्वा तदस्य प्रियमभिपातो अश्या नरो यत्र देवयवो मदन्ति उरुक्रमस्य स हि बन्धुरित्था विष्णो पदे परमे मध्व उत्सः प्रतद्विष्णुस्तव ते वीर्याय भृगो न भीमः कुचरो गिरिष्ठाः यस्योरुषु त्रिषु विक्रमणेषु अधिक्षियन्ति भुवनानि विश्वा परो मात्रया तनुवा वृधाना न ते महि त्वमन्वश्नुवन्ति उभे ते विद्भरजसि पृथिव्या विष्णो देवत्वम् परमस्य वित्से विचक्रमे पृथिवी भेष एता क्षेत्राय विष्णुर्मनुषे दशस्यन् ध्रुवासो अस्य कीर योजना सह उरुक्षितिगुंसु च निवाचकारा त्रिदेव पृथिवी भेष एता विचक्रमे शतश्च सम्महित्वा प्रविष्णुसस्तु तव सस्तवेयान् त्वेषग्रह्यस्य स्थविरस्य नाम अतो देवा अवन्तु नो यतो विष्णुर्विचक्रमे पृथिव्या सप्तधामभिः इदम् विष्णुर्विचक्रमे त्रेधानि तदे पदम् समूढमस्य पागुम् सुरे त्रीणि पदा विचक्रमे विष्णुर्गोपादाभ्यः ततो सर्वाणि धारयन्न विष्णोत्तर्वाणि पश्यत यतो व्रतानि पश्पशे इन्द्रस्य युज्यः सखा तद्विष्णोत्परमम् पदगुम् सदा पश्यन्ति सूरयः दिवि वचक्षुरा ततम् तद्विप्रासो विपन्यवो जाघ्रुवागुम् सस्यमिन्धते विष्णो यः परमम् पदम् पर्याप्त्या अनन्तरायाय सर्वस्तोमोतिरात्र उत्तममहर्भवति सर्वस्याप्त्यै सर्वस्य जित्यै सर्वमेव तेनाप्नोति सर्वम् जयते ॐ शान्ति शान्ति शान्तिः राजाधिराजाय प्रसंयसाहिने नमो वयम् वैश्वनाय कुर्महे समेकामाङ्गामकामाय मह्यम् कामेश्वरो वैश्वनो ददातु
कुबेराय वैश्रवणाय महाराजाय नमः स्वस्ति प्रजाभ्य परिपालयन्ता व्यायेन भार्गेण महीमहिषाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ शान्ति शान्ति शान्तिः